सर्वेभ्यो नमस्कारः। अद्य सिद्धान्तकौमुद्याः हलन्तः पुंसकलिङ्गप्रकरणे चतुर्थः पाठः, सेप्टेम्बर् मासस्य चतुर्थः दिनाङ्कः। येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मिन्नित्रयम्। मुनित्रयं नमस्कृत्य तदीष्परिभाषित वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। मकारान्त नपुंसकलिङ्गस् एण्ड् वी आर् कवर्ड् क्वैट् ए फ्यू शब्दस्। स्टडी ब्रह्मन् एस् द फस्ट् वन् वेर् देर् इस् नथिङ्ग् ऐ मीन् नो स्पेशल् कार्य ब्रह्मन् सिन्स् इट् हेस् अ संयोग एण्ड् there is an an which has a sanyoga. This is preceded by the Makarantha sanyoga. There is no aloka. Brahma, Brahmani, Brahmani. So that this is the upadhadita in the senses, and everything else is very simple. So then we have the Ahan shabda, which has two special sutras which go with the word. One is Ahan and the other is Rosuti. The word Ahan gets Rutva in Padanta, and if it is followed by something which is other than Sup, it gets Repharesha. So effectively we get Repharesha when we are doing the Shabda forms, Vibhakti forms. Repharesha occurs only in Prathama Ekavachana, that is Sup Pratyaya in the Pumsakalinga. The rest is all Rutva. So if you have Rutva, it is generally followed up by Hashita and Guna. So you have forms like Ahobhyam, Ahobhihi. Whereas in case of Repha, Hashita will not apply. So we will have something, Ahaha is the form. And if something follows, you have things like Aharbhati. The same thing if it is at the end of a samasa like Dithahan, and we do the forms in Pullinga, we end up having Rutva everywhere, because the Pratyaya, the Su Pratyaya is deleted by Lopa, and Pratyaya Rakshanena Su Pratyaya Bhavati Ittataha Tatraapi Rutva Meva Bhavati. Tataha Innantaha Trayaha Shabdaha Rishtaha Dandin Sragvin Vagmin इन्हन् पूषार्यम्नाम् शौ इति सूत्रेण शौ एव उपधादीर्घः इति नियमः क्रियते। इन् प्रत्ययस्यापि भवति, अन्येषाम् इन्नन्तप्रत्ययानां विषये अपि इदं सूत्रं प्रवर्तते। बिकास् आफ् द परिभाषा अन्नस्मन् ग्रहणानि अर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति। So all these three words, Dandin, Stratvin and Vagmin will have identical prakriya and similar forms. Moving on with the Nakarantas. Nakarantaha Napumsakalingaha Bahuvrittraha Shabdaha. Vrittrahan Bahuvrittrahan Shabdaha. So Nakaraha, I mean, it's a typing error. The shabda is brahu vitrahan makaranta. Vitrahan shabdaha pullinge atitaha. Vitraha vitrahanau vitrahanaha. Vitramhanti iti vitraha is Indra. It refers to Indra. Bahavaha vitrahanaha yasmin tat. So Indra, as you know, is not one person. It is a position. Like we have a president or a prime minister. So there are many Indras. So say probably a kula which has produced many Indras. Ityarthe bahuritrahan shabdaha. Bahavaha vitrahanaha yasmin tat iti bahugrihi samasaha. Napumsakasya visheshanam ityataha bahuritrahan iti napumsakalingya bhavati. Tasmat suprate samor napumsakat ityanena soho luk नलोपः प्रातिपदिकान्तस्य इत्यनेन नकारस्य लोपे बहुवृत्रः। दिस् is actually one of the very few words in, I mean, final forms in Sanskrit, probably which end in the Subanta forms which end in Hasvakara. In actual Napumsakalinga, if you have a Hasvakaranta word, the Su will be replaced by Am. So they end in, like, say, Phalam. In Pullinga, you have Visarga. And if the in Strilinga, if there is any Akaranta word, it gets Ta, so it becomes Dirgha Akaranta. If there is Nalopa, that is in case of Pullinga, if there is an Akaranta word, it gets Upadha Dirgha. So this is one case where there is nothing, so the final form ends in Sasvakara. It sounds very abrupt for Sanskrit actually, but one of the very few words which have this. So, Bahurudraha iti Sukrate atha Tathama Ekavachane Rupam. Bahurudrahan Au Jivachane Aungaha Nahumsakacha ityanena Shi Adeshaha Vibhasha Nishyohu ityanena Allopaha Annantaha Ayam Shabdaha. So, the previous ones which were Dandin, Shagrin, Vakmin, they are all Innanta. So, there is no Prasakti of Allopa, kintu atra anna iti asti, ityataha vibhasha nishyoho ityanena shyam vikalpena akarasya lopaha. Akarasya lope krate bahuvritrah n i asti ho hantaya ninneshu iti sutram purvameva adhitam hantehe haha namah akarasya nit nit nakareshu pareshu. अतः तो नकारा है इसकी नकारे परे हंते हैं हकारस्य कुत्तम फवती कुत्ते कुत्ते अंतरतम्यते वर्गचतुर्था अर्थात घकारा है आदेश है बहुवृत्रघ्नी इति रूपम् बहुवृत्रह बहुवृत्रघ्नी अयम् अल्लोपः वैकल्पिकः विभाषा यीशो हो इतने अतः अल्लोपा भाव पक्षे बहुवृत्रहन ई इत्यस्ति बहुवृत्रहणी इति रूपम् एकादत्तर पदे यः इति सूत्रेण वृत्र इत्यत्र रेफः पूर्वपदे अस्ति पूर्वपदे निमित्तमस्ति हन इत्यत्र उत्तरपदे नकारः अतः रसाभ्यां नोण समानपदे इत्यनेन प्राप्तिः नास्ति समानपदत्वं नास्ति किन्तु एकाच उत्तरपदेन एकाच उत्तरपदं यत्र तत्र अनेन सूत्रेण अनस्वं पति पूर्वपदे निमित्तम् उत्तरपदम् एकाच हन् इति अतः तेन सूत्रेण णत्वे कृते बहुवृत्रहणी इति रूपं रूपद्वयमस्ति बहुवृत्रघ्नी बहुवृत्रहणी जस् प्रत्यये जसः शिः जशसो शिः इत्यनेन बहुवृत्रहन् इ इति भवति अत्र इन्हन् पुषा अव्यमांशौ इन् इन्दन्ता अधीताः हन् हन्नन्तस्यापि शौ एव उपधादीर्घः नान्यत्र इति नियम्यते शौ तु उपधादीर्घः भवति बहुवृत्रहान् इ अणत्वे कृते बहुवृत्रहाणि बहुवृत्रः बहुवृत्रघ्नी बहुवृत्रहणी बहुवृत्रहाणि पुनः द्वितीया विभक्तौ तथैव तृतीयातः यथा पुल्लिङ्गे तथा पुल्लिङ्गवत् रूपाणि वृत्रघ्ना वृत्रभ्यां वृत्रभिः अजादिषु प्रत्ययेषु अल्लोपः हलादिषु प्रत्ययेषु नकारस्य लोपः लोपः प्रातिपदिकान्तस्य इत्यनेन पुल्लिङ्गवद् रूपाणि भवन्ति ततः पूषन् पूषन् शब्दः अपि पुल्लिङ्गः समासे कृते बहवः पूषणः यस्मिन् तत् इति समासे कृते बहुपूषन् शब्दः तस्यापि समानरूपाणि इट् विल् बि एक्साक्ट्लि लैक् बहुरत्रहन् सः बहुपूष बहुपूष्णी बहुपूषणी बहुपूषाणि अत्र णत्वं तु पूषणी इत्यत्र ऋषाभ्याम् नोणसमानपदे इति सूत्रेण पूषणी इत्यत्र अट्कुप्वाङ्गम् व्यवायेपि इति सूत्रेण नक्तम्। एवम् अर्यमन् बहवः अर्यमणः यस्मिन् तत् इति विग्रहे बह्वर्यम बह्वर्यम्णी बह्वर्यमणि बह्वर्यमाणि समानम्। सो ऑल दीज थ्री वर्ड्स विल हैव आइडेंटिकल फॉर्म्स बिकॉज दे आर ऑल इंक्लूडेड इन इन हन पूष अर्यमणाम। सो हन पूषन अर्यमन त्रयाणाम अपि शौ उपधा दीर्घः भवति अन्यत्र उपधा दीर्घः नास्ति। सर्वेपि अन्वन्ताः इत्यतः अल्लोपः अपि भवति। तेन नकारान्ताः नपुंसकलिङ्गाः समाप्ताः। दट् इस् आल्। इन् पुल्लिङ्ग यू हेव् मेनि मोर् टैप्स् एक्चुलि। सो हियर् द डिफरेण्ट् टैप्स् आर् आल् जस्ट् दिस् सीडिङ्ग् जकारान्ताः नपुंसकलिङ्गाः जकारान्तः नपुंसकलिङ्गः असृज् शब्दः रक्तम् इत्यर्थे अयं शब्दः अस्ति असृक् इति नैपूर्वकात् सृज् धातोः सृजविसर्गे इति धातुः नैपूर्वकात् तस्मात् धातोः क्रिप् प्रत्ययः क्रियते प्रत्ययस्य सर्वापहारिलोपः असृज् इति प्रातिपदिकम्। असृजः पदान्ते कुतो सृजेः क्विनो विधाना असृज् इस् एक्चुलि कृत् प्रत्ययान्त बट् द वर्ड् सृज् गेट्स् क्विन् पृथ्वी दधृक् सृक् इत्यस्ति। तेन सूत्रेण निरुपपदस्य अर्थात् केवलस्य सृज् धातोः क्रिन् प्रत्ययः क्रियते। क्रिन् प्रत्ययस्य कुः इति सूत्रे क्रिन् प्रत्ययः यस्मात् सः इति बहुव्रीहिः आश्रितः। तत्फलेन किं भवति कस्यचित् धातोः कुत्रचित् क्विन् प्रत्ययः भवति चेत् अलम् अन्येषु प्रत्ययेषु अर्थात् द्विप्रत्ययान्तेषु अपि कुत्वं भवति। सो दट् इस् वाट् वी हव् आलरेडि सीन् अर्लियर् टु इन् दे वर्ड्स् लैक् दृश्यम्। सो इफ् दट् धातु हेज् द योग्यता टु गेट् क्विन् प्रत्यय इन् वन् केस् सो इवन् इन् अदर् केसेस् वेर् इट् डस् नाट् हेव् क्विन् कुत्वा विल् स्टिल् अप्लै क्विन् प्रत्ययस्य। So therefore, since Sridha Dhatu gets Kvin in a one particular case, which is the, just the plain Sridha Dhatu gets Kvin, so Kvin Pratyaha Yasmaattaha Artha Sridha Dhatohu Tadantasya Shabdasya Kutvam Bhavati Padante Yuktatvata Artha Api Kutvam Bhavati Artha Asrijaha Padante Kutvam Asrij Su Existi Supratyasya Luk Bhavati अष्टभ्रज इत्यादिना षत्वम् जस्तेन तस्य डः ततः क्विन् प्रत्ययः इत्यनेन कृत्वे असृज् इति भवति। आवधाने इत्यनेन कृत्वे असृक् असृक् असृग् इति रूपम् इति सिद्धान्तः। किन्तु विश्वसृड् इत्यादौ तु न विश्वसृड् इति शब्दः अस्ति विश्वं सृजति इति समासे विश्वसृज् इति जकारान्तं प्रातिपदिकं तत्र तु क्विन् प्रत्ययस्य कुः इति न इष्यते। वि डु नाट् वाण्ट् क्विन् प्रत्ययस्य कुः टु अप्लै देर्। द फार्म्स् आर् विश्वसृड् विश्वसृड् विच् इस् यु हेव् षत्व बै वृष्टभ्रज फालोड् बै जष्ट्व सो द प्रक्रिया स्टाप्स् देर् अण्ड् डकार इट्सेल्फ् इस् हर्ड् इन् प्रयोग प्रयोगे इदं दृश्यते यत् असृज् शब्दस्य कुत्वं श्रूयते विश्वसृज् इत्यादौ तु कुत्वं न श्रूयते कथमिदम् इति प्रश्नः। विश्वसृज् इत्यादौ तु न कुत्वं न भवति किमर्थम् सृजिवृषोः इति सूत्रे रज्जुसृड्भ्याम् इति भाष्यप्रयोगात्। सृजिवृषोः झल्यमकिति इति सूत्रमस्ति तस्य सूत्रस्य भाष्ये भाष्यकारः प्रयुङ्क्ते किमिति रज्जुसृड्भ्याम् इति किमपि प्रयोगः। It does not matter in what context he uses it. He uses the word Rajju Sridbhyam. Rajjum Sridati ityarthe Rajju Sridj. Ekachakarantum. तत्र भाष्यकारेण डकार जस्वसहितः एव प्रयोगः कृतः न तु कुत्वसहितः. भाष्यकार प्रयोगबलात् वी यूज़ द प्रयोग ऑफ पाणिनी कात्यायन एंड पतंजलि इट्सेल्फ एज प्रमाण. अत्र तु भाष्य प्रयोगबलात् तेन प्रमाणेन अत्र विश्वसृड् इत्यादौ कुत्वं न भवति. कुत्र कुत्वं भवति कुत्र न भवति इति चेत् अनव्ययपूर्वपदस्य सृजेः भाष्यप्रयोगतः कुत्वाभावः. सो इफ द पूर्वपद इज नॉट एन अव्यय देन देर इज नो कुत्व. इज द रूल दट दे डिराइव फ्रॉम भाष्यप्रयोग. लुकिंग एट भाष्यकार प्रयोग इन अ कपल ऑफ केसेस नॉट जस्ट दिस. देयर इज वन मोर सूत्र वेर भाष्यकार यूजेस सच अ वर्ड. So the rule is, if the word, the root sridha is preceded by an avyaya, as in case of nai, you have atrij, yatra avyayam purvapadam che kutvam bhavati, kevalasya sridha hai kvin, saha kvin pratyayantaha taha kutvam bhavati, anyani purvapadani santi che. So other than an avyaya, if you have other purvapadas, then there is no kutva. Iti niyamaha kritaha. But this still does not solve the whole issue surrounding vinpratyasya. So the Vyakhyana, if you look at Bala Manorama, he has an extended discussion regarding this. He says, evam satyapi devet ityado kutvam durvaram syat. There is one more word in that Ritvik Dadhra. Yad dhatu. Ritvik is derived from yad. Okay. So now, since Yadidhatu gets Kvin Pratyaya in Ritvik Dadhraka, so in other cases, just like you had for Sridhi, you argued for Sridhi, that since Sridhidhatu gets Kvin Pratyaya by the Sutra, in other cases, that is, even when it has a Purvapada, it can get Kutva. Iti Eruktam, Yadidhatoho Vishaya Yati Samanam Bhavati. Tathaha Yadidhatoho देवेट इति देवान यजति इति देव देवेज इति चकारान्तं पाठकं तत्रापि क्विन् प्रत्ययस्य कुः इति कुत्वं भवतु इति आक्षेपः. सृज धातोः विषये भाष्यप्रयोगबलात् कश्चन निर्णयः स्वीकृतः. किमिति अव्ययपूर्वपदं चेत् कुत्वं भवति अनव्ययपूर्वपदं चेत् कुत्वं न भवति इति भाष्यप्रयोगबलात् निश्चितम्. यजधातोः विषये तादृशस्य प्रयोगस्य प्रामाण्यं नास्ति. भाष्यकारेण वा सूत्रकारेण वा कार्तिककारेण वा तादृशः प्रयोगः न कृतः. अतः प्रयोगबलेन किमपि वक्तुं न शक्यते. क्विन् प्रत्ययस्य कुः इत्यत्र क्विन् प्रत्ययः यस्मात् इति बहुव्रीह्याश्रयेण देवेट् इत्यादौ कृतं भवति. किं करणीयम् इति प्रश्नः. अतः दीक्षिताः अन्यदेकं समाधानं यच्छन्ति. सो द फर्स्ट समाधानं हि आफर्स् फार् अतृक् इस् क्विन् प्रत्ययस्य कुः इत्यत्र बहुव्रीह्याश्रयणात् अतृज् इत्यस्यापि कुत्वं भवति, किन्तु अनव्ययपूर्वपदस्य कुत्वं न भवति इति प्रथमं समाधानम् उक्तं दीक्षितैः. इदानीम् उच्यते यद्वा अथवा द्वितीयं विश्वसृड् इत्यादौ कुत्वं निवार्य. विश्वसृड् देवेट् इति उभयत्र कुत्वं निवार्य, केवलम् असृक् इत्यस्य कुत्वं प्रापयितुं कश्चन प्रयत्नः दीक्षितानां. यद्वा पश्चादिसूत्रे सृजियज्योः पदान्ते षत्वं कुत्वापवादः. पृश्चभ्रज सृजमृज यजराजभ्राजच्छषां शः इति सूत्रम्. तस्मिन् सूत्रे सृजधातोः अपि ग्रहणमस्ति, यजधातोः अपि ग्रहणमस्ति. So he says, the shatva given by Vrashchabhrajja in case of padanta. Vrashchabhrajja ityatra padante shatvam vidhiyate, jhalipare api shatvam vidhiyate. Jhalipadante cha shatvam bhavati iti sutrasah. So now we are considering the padanta part of it. Padante shatvam kutvasya apavadaha. Kvin pratyayasya kuh iti kevalam padante shatvam kutvam vidhiyate. Okay. So now this kutva is to be considered as an apavada to shatva. Arthat padante shatva kutvayohu parasparam viprathishethe prapte kutvam apavadaha. Apavadas chet परनित्यान्तरङ्गापवादानाम् उत्तरोत्तरम् बलीयः इति नियमेन अपवादस्य बलवत्तमत्वम् अस्ति, अतः अपवादस्यैव प्रवृत्तिः. सो पदान्ते षत्वम् कुत्वस्य अपवा सोरि षत्वा इस् अन् अपवाद टु कुत्व. I think I told the reverse. Shatva is to be considered as an apavada at kutva. So if you have a clash between Rastrapradha and Kripatyasya Kuku in Padanta, Shatva is considered as an apavada to kutva. Rastrani Sutra Sujiyajyohu Padante Shatvam Kutva Apavadaha. Tathanta Vishwakrit Ityadav Deved Ityadav Cha Shatvam Nirvatham. Okay, so there is a typing error, or maybe I was thinking something, so I made the same error. It is not Kutvam Nirvadham, it is Shatvam Nirvadham. So in case of Vishwasrid and Devet, overruling Kripatyasya Kuku, we apply Shatva. So Shatva followed by Jastva, so it will stop there. Since it is an apavada, after applying Shatva, Kutva will not apply again. So the what we did in the previous case was, there was no Utsarga Apavada Bhava between Shatva and Kutva. Ataha Shatve Jastve Kutvam Pratam. Kintu Idanim Kim Uchyate Sridhiyajyoho Vishaye Shatvam Kutvasya Apavadatvena Svikriyate. अपवादः इत्यतः षत्वमेव भवति, कुत्वं बाधित्वा षत्वं भवति. सो वन्स् यु अप्लै षत्व, देर् इस् नो कुत्व. सो विश्वसृट् इत्यत्र, देवेट् इत्यत्र च वृष्टभ्रजादिना षत्वं भवति, ततः स्थलां दृशोन्त इत्यनेन दृष्ट्वे विश्वसृट् विश्वसृट् तथा देवेट् देवेट् इति रूपाणि भवन्ति. तत्र कुत्वं निवारितम्. एवं सति. Now, over this parihara, this is one samadhana which Dikshitar is offering, that Shatva is to be treated as an apavada to Kutva. Atra ka samasya, evam sati, srag ritvik shabdayohu api pin pratyasya iti kutvam vadhitma, rashtyadina shatvam syat. Now, for the plain srag and ritvik, which are told under, which get krin pratyaya by ritvik ritvik, tatra api krin pratyasya kuku iti kutvam vadhitma, Shatvameva Syat. Actually, we desire Kutva there. Srak, Srak iti Rupani, evam Ritvik, Ritvik iti Rupani, tatra Kutvam Ishyate. Hintu, yadi Shatvam Kutvasya Apavadaha iti Utsyeta, sarhi, tasya vishaye api, Kutvameva, Kutvam Vadhitva, Shatvameva Syat. Srak iti Rupam Syat, evam Ritvik iti Rupam Syat. Tat katham iti prashna. Nanu evam sati, Srak Ritvik Shabdayohu api, विन् प्रत्ययस्य इति कुत्वं बाधित्वा पृष्टादिना षत्वं स्यात्. अतः दीक्षिताः वदन्ति मूले अस्ति सृग् ऋत्विक् शब्दयोस्तु निपातनादेव कुत्वम्. ऋत्विक् तथक् सृग् दिगुष्णिगञ्च इति सूत्रं निपातनं सिद्धप्रक्रियस्य निर्देशः. अतः निपातनात् सृग् इत्यत्र कुत्वमेव भवति, ऋत्विक् इत्यत्रापि कुत्वमेव भवति, न तु षत्वम् इति निर्धारणं कर्तुं शक्यते. So that those forms are also decided. What about asrik? The word which we have, which is currently under contention. Asrik shabde katham kutvam. Asrik ityatra api yadi shatvam kutvasya apavadaha tarhi shatvam eva syat. Nanu tarhi asrik shabde api kutva apavadaha shatvam syat. So how do we prevent shatva in asrik and get kutva? Iti chet असृग् शब्दस्तु अस्य देहे औणादिके ऋज् प्रत्यये बोध्यः. सो हि इस् अ डिफरेंट निष्पत्ति फॉर असृग्. इफ असृग् इज डिराइव्ड फ्रॉम सृज् धातु, देन देयर इज दिस कंटेंशन बिटवीन षत्व कुत्व, विच वन शुड वी डू. द क्लैश अराइजेस ओनली व्हेन इट इज डिराइव्ड फ्रॉम सृज् धातु, बिकॉज सृज् धातु इज इंक्लूडेड बोथ इन वृषभ्रज एंड ऋत्विक. Now, he entirely changes the derivation. Asyatehe unadike rich prateye. Asukshepane iti dhatoho unadi prateyaha kashtanati rich iti prateyaha. Asu iti dhatoho ऋज इति प्रत्ययः असृज इति जातम् तस्मात् तस्मात् शब्दात् असृज इति उणादीनां श्रुतं तत्त्वमस्ति प्रातिपदिकत्वम् असृज शब्दः तथा निष्पन्नः असृज शब्दस्तु अस्यतेः औणादिके ऋज् प्रत्यये बोध्यः असृज इत्यस्ति चोक्कुः इति सूत्रेण उक्तं भवति अन्ते जकारः अस्ति पदान्ते सवर्गस्य कवर्गः भवति इत्यनेन कुत्वं साक्षात् क्रियते चोक्कुः इति सूत्रेण कृत्वे असृज् असृग् क्षम्यताम् असृक् असृग् इति रूपं साधयितुं शक्यम् इति द्वितीयम् यस् प्रत्यये सारी ऐ कुडंट मेक आउट दैट वर्ड चेक माय कॉपी ऑफ Yeah, and you're saying the only text is I want to just okay. I get my comedy. Actually, my edition of the Kaumudi says the same. Asrak shabdasto asyateve aunadike rajpratyaye bodhyah. That is what is there in my... There might be a pathantara. So. So, it says asrak shabdasto asyateve. Can you please repeat it? Yeah, I think it should be. Yeah, I think, I mean, the eighth sign should have gone. I mean, because that, there's no word like that. So, yeah, I think it's just a typing error. So, okay, so, if we derive asit this way, then we get kutva by chok. So the problem if we derived in fridge is because of the shatva which is there because of rastabhradya. If it is rij pratyaya of asadhatu, there is no question of applying rastabhradya. So we do kutva and the forms will still be the same. Okay. So the forms are asrik asrig. So if you are deriving from सृजधातु षत्वं भवति ततः जस्तं भवति कुत्वं भवति यदि असधातोः ऋज् प्रत्ययान्तः इति स्वीक्रियते तर्हि चोक्कुः इत्यनेन साक्षात् कुत्वं भवति असृक् असृज् असृजि असृज् औ अंगः शि असजि ततः असजि जस जसः दशसौः शिहि इत्यनेन शि झलं तत्वात् नपुंसकस्य झलसः इत्यनेन नुमागमः भवति जसि जसः शौ झलं तत्वात् नुमागमः ततः असृन् जि इत्यस्यते नष्टापदान्तस्य झलि इत्यनेन अनुस्वारः अनुस्वारस्य ययि परसवर्णः असृञ्जि असृक् असृक् असृजि असृञ्जि पुनः द्वितीया विभक्तौ तथैव शस्प्रभृतिषु सो इन कमिंग टू शस् पद्दन्नोमास हृन् निश् असन् इत्यस्ति असन् शब्दः असृज् शब्दस्य आदेशः सो शस्प्रभृतिषु विकल्पेन असन् इति आदेशः भवति शब्दस्य सम्पूर्णस्य शब्दस्य सो वेन् यू रिप्लेस् असृज् वित् असन् यू हाव् असन् एण्ड् ई सर्वनामस्थाने च सम्बुद्धौ इत्यनेन उपधादीये असानि इति एकं रूपम् असृञ्जि इति रूपं तु अस्ति एव रूपद्वयं भवति असृञ्जि असानि एवम् असृजा इति एकम् अस्ना असन् आ अस्ति अलोपो नः इत्यनेन अकारस्य लोपे अस्ना अस्ना असभ्याम् असभिः इत्यादीनि रूपाणि भवन्ति असन्नादेशपक्षे आदेशाभावे तु असृजा असृग्भ्याम् असृग्भिः इति रूपाणि असृग्भ्याम् असभ्याम् इत्यादि ततः जकारान्तः नपुंसकलिङ्गः ऊर्ज शब्दः अस्ति ऊर्ज बलप्राणनयोः इति धातोः क्विप् प्रत्ययान्तः शब्दः ऊर्क् ऊर्ग् चोक्कुः इत्यनेन कुत्वं भवति अत्र ऊर्क् ऊर्ग् ऊर्जी औ औङः श्याम् रूपम् ततः शस् प्रत्यये किं रूपम् इति प्रश्नः ऊर्ज इत्यस्मात् जशसोः शिः इत्यनेन शि ऊर्ज इ इत्यस्ति झलन्तत्वात् नुमागमः करणीयः नपुंसकस्य झलसः नुमागमः मिथ् मिथचोऽन्त्यात् परः इत्यनेन अन्त्यादचः परत्वेन नुमागमः भवति अत्र अन्त्यः अच् अस्ति ऊकारः ऊर्ज अस्ति ऊकारात् परत्वेन रेफः जकारश्च अस्ति अन्त्यः अच् नाम ऊकारः एव ऊकारस्य परत्वेन नुमागमः क्रियते किं भवति ऊ नृ जि अत एव मूले दीयते नरजानां संयोगः नकारस्य रेफस्य जकारस्य च संयोगः ऊन्द्जि कथम् उच्चारणम् इति नष्टव्यम् उच्चारणं क्लेशाय एव भवति किन्तु नरदानां संयोगः अस्ति ऊन्जि इति दीक्षितानां मतम् बहूर्जि नुम् प्रतिषेधः अन्त्यात् पूर्वो वा नुम् बहूर्जि बहूञ्जि वा कुलानि अत्र किञ्चन वार्तिकम् अस्ति बहूर्जि प्रतिषेधो वक्तव्यः अन्त्यात् पूर्वं नुमेके इच्छन्ति इति वार्तिकं प्रवृत्तं भाष्ये इदं वार्तिकम् अस्ति बहूर्जि प्रतिषेधः कस्य प्रतिषेधः नुमः प्रतिषेधः तदेव कौमुद्याम् अर्थतः सङ्गृह्णाति तद् वार्तिक इस् नाट् गिवन् एस् इट् इस् सो दीक्षित यूसस् दिस् वार्तिक टु से बहूर्जि नुम् प्रतिषेधः नुम् न भवति इति एकः पक्षः अन्त्यात् पूर्वं नुममेके इच्छन्ति दट् इस् वन् पक्ष एके सम् पीपल् वुड् लैक् टु हाव् नुम् दट् इस् वुड् लैक् टु हाव् अकार्डिङ्ग् टु सम् वैयाकरण नुम् अकर् अन्त्यात् पूर्वं बिफोर् द लास्ट् लेटर् दट् इस् बिफोर् जकार नाट् बिफोर् नकार जकारात् पूर्वं नुम् भवति केषाञ्चन मते इति वार्तिकमस्ति अतः बहूर्जि नुम् प्रतिषेधः इति एकः पक्षः अन्त्यात् पूर्वः वा नुम् अन्त्यात् पूर्वत्र नुम् भवति इति अपरः पक्षः तदा किं भवति बहूर्जि यदि नु न भवति तर्हि बहुर्जि इत्येव रूपम् नकारः नास्ति। यदि अन्त्यात् पूर्वः नु आगमः बहुर् नु जि इत्यस्ति, नकारस्य अनुस्वारे परसवर्णे च कृते बहुर्जि वा कुलानि, बहुर्जि बहुर्जि इति रूपद्वयं सिद्ध्यति तस्मिन् पक्षे। अत्र बालमनोरमायां कश्चन विषयः अस्ति। सो दिस् इस् वाट् कौमुदी सेस्। ओके, अकार्डिङ्ग् टु कौमुदीकार हिंसेल् नुमागम आफ्टर् उकार मरदानां संयोगः इति एकः पक्षः, अथवा रूपद्वयं भवति बहुर्जि बहुञ्जि इति अपरः पक्षः। नौ ओवर् दिस् द भाष्यकार द बालमनोरमकार गिव्स् एन् आर्ग्युमेण्ट्। सो हि सेस् अत्र बहुर्जि प्रतिषेधः इति प्रथमवार्तिकं न कर्तव्यम्। द फर्स्ट् वार्तिका सेयिङ्ग् बहुर्जि प्रतिषेधः वक्तव्यः, सो तद्वार्तिकं नापेक्ष्यते, दट् वार्तिकम् इस् नाट् रिक्वायर्ड् इति भाष्यकारः वदति। किमर्थम् इति चेत् नपुंसकस्य झलसः इति सूत्रस्य अधः परः यः झल् तदन्तस्य क्लीबस्य नुं स्यात् इति व्याख्याने सति नुमः एव अत्र अप्रसक्तेः। He says, in Bahurji, there is no possibility of getting num. Kimartam, kena sutrena numagamaha ishyate, napumsakasya dhalasaha iti sutrena. Sutrasya kaha arthaha asmabhi adhitaha, dhalantasya ajantasya chaklivasya numagamaha syan sarvanamasthane. Iti arthaha kritaha. Right? So that is how we have interpreted napumsakasya dhalasaha. झलन्त और अजन्त इन नपुंसकलिंग विल गेट नुमागम। नाउ द भाष्यकार ऑफर्स अ डिफरेंट इंटरप्रिटेशन ऑफ नपुंसकस्य झलक। ही सेज अतः परः यः झल्, सो नपुंसकस्य झलकः विल अप्लाई ओनली इफ देयर इज अच व्हिच इज फॉलोड बाय झल, दैट इज लाइक से मनस। देर इज अकार मन इत्यत्र अकारः, अकारात्परत्वेन झल् वर्णः अस्ति सकारः, सो तत्र तदन्तस्य क्लीबस्य नुमागमः भवति। नौ हियर् इन् ऊर्ज् देर् इस् ऊ विच् इस् अच्, इट् इस् फालोड् बै रेफ विच् इस् देन् फालोड् बै जकार, जकार इस् द झल् एण्ड् ऊ इस् द अच्, अतः परत्वेन झल् नास्ति, सो देर् इस् नो अच् फालोड् बै झल् हियर्। So in such interpretation, numaha eva trapa sakte hai. There is no num. We cannot do num using napumsakasya jalasaha here. So, bahuji pratishedaha na vaktavyaha. The vartika saying num should be, num, there is no num in bahuj is not required. There is no num. We cannot do num using napumsakasya jalasaha. Is what the Bhashyakara says. Now over this there is a question which will arise. If we interpret Napumsakasya Jhalasaha this way, Atah paraha yaha jhal tadantasya klivasya numagamaha syat iti yadi uchyate, tarhi ajantasya katham numagamaha. So the sutratha has been modified. What the sutratha which we use is jhalantasya ajantasya cha numagamaha. Now if we use this sutratha, Atah paraha yaha jhal तदन्तस्य क्लीबस्य नुमागमः स्यात् इति यदि सूत्रार्थः, तर्हि अजन्तस्य कथम् इति प्रश्ने न च एवं सति वनानि इत्यादौ अव्याप्तिः शङ्क्या। वन इति स्थिते अजन्तस्य कथं नुमागमः इति चेत् इकोचि विभक्तौ इत्यतः अचि इति अनुवर्त्य अजन्तस्य क्लीबस्य सर्वनामस्थाने परे नुं स्यात् इति वाक्यान्तराश्रयणात्। सो नपुंसकस्य सहजः इति वाक्यद्वयं विद्यते। प्रथमवाक्येन अतः परः यः झल् तदन्तस्य क्लीबस्य नुमागमः इति एकं वाक्यम्, अजन्तस्य क्लीबस्य नुमागमः इति अपरं वाक्यम्। सो बोत् आर् क्लियर्। सो यदि अजन्तं भवति नपुंसकलिङ्गे तर्हि नुमागमः भवति, अतः परत्वेन झल् तदन्तं नपुंसकलिङ्गं चेत् तत्रापि नुमागमः भवति इति सूत्रार्थः। So the Bhashyakara is refining the Sutrartha. It is not just any jhalanta. Na kevalam jhalantam iti chet evana atahparatvena jhal bhave. So that jhal should be immediately preceded by an ach. Which means, if there is a word ending in sanyoga like urj, there is no numagama. That's what the Bhashyakara says. So, evam cha urk shabde shau narajanam sanyogaha iti moolam bhashya viruddhatva upekshyam eva. So, what the Vyakhyakara says? Kaumuli karena kimuktam unraji narajanam sanyogaha iti dattam tat bhashya viruddhatva upekshyam. That is against the bhashya. So, Vyakhyakara says that the form unraji is not according to the Bhashya, Bhashya Virutattva Upekshyam. So if you go by the Bhashya, you cannot derive Unradi. So that form is wrong. I mean, instinctively it is very difficult to pronounce Unradi. So, Vartikakara Mate Api Nabhavati Vahurji Pratishedaha Vaktavyaha Itteva Vadati Vartikakara Antyar Purvam Numam Eke Ichanti Keshanjana Mate Eva Antyar Purvam Numam Nocet Vartikakarasya Matamapi Nabhavet Numagamaha itteva, Bhashyakara mate api Numagamaha nabhavati, ataha undraji iti rupam nabhavati iti Balavanvarama karaha. Tatra evamcha urkshabde shau narajanam sanyogaha iti moolam bhashya viruddhatvat upekshyam eva. Tatra atahparasya jhalaha bhavena. Since the ach is not immediately followed by jhal, Numaha prasakteh. There is no question of doing num there. So, Bahurji ityeva rupam. Keshanchana mate antyat purvam yadi numagamaha ishyate tarhi Bahurji iti bhavati. Is this clear? So if there is any kind of confusion, maybe you can listen to this again. So that is nothing, it's just an argument over an argument. So but if you learn how arguments are conducted in the Shastra. So it is not so the question and answer. So there might be objections arising to the answer. So any answer should take into consideration all the possible akshepas and answer them. Like the Balavano Ramakara is doing here. He explains that what is napumsakasya jhalasaha ityatya anyat kimapi vyakhyanam dattam evam chet katham anani ityado avyaptihi chet katham iti siddhanta. Okay. So next we will have kakarantaha napumsakalingaha. So it's very easy. Kakarantaha napumsakalingaha tyad shabdaha sarvanama tyad tyad Napumsakatvata soho luk bhavati pratyaya lakshana bhavaha somor napumsakatityanena luki nilumutangasya ityanena pratyaya lakshanam nishidhyate ataha terarina maha iti attomapi na bhavati tadosasavanam cheyohu ityanena saptomapi na bhavati. So the form is tyad 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 tyeva tye anyasu vibhaktishu sarvatra terarina maha ityanena akaraha ataha tya iti akarantam bhavati shi aungaha shi tya I tye iti rupam tyat tye tyani punahatra ti tyarajyatvam jataha shihi tya I tyasti ajantatvat napumsakasya jhalasaha ityanena numagamaha sarvanamasthane chasam buddhau ityanena upadhadirghe tyani tyat tye tyani tyad tyat tye tyani तदिया विभक्ते हैं आरभ्य पुल्लिंगवद् रूपाणि भवन्ति. तत् तद् ते तानि तद् शब्दस्यापि समानम् यत् यद् ये यानि सो आल् दीस् यद् यद् एतत् आल् दीस् विल् हाव् सिमिलर् फार्म् एतत् एतत् एते एतानि अन्वादेशे तु एनत् एतत् शब्दस्य विषये अन्वादेशः भवति द्वितीया टौ स्वेनः इत्यनेन अन्वादेशे नपुंसके एनद् वक्तव्यः इति वार्तिकेन एनत् इति आदेशः अमि अर्थात् द्वितीया एकवचने एव एतद् एतद् एनत् इति रूपत्रयं भवति एते एतानि एने एनानि अन्यत्र तु एन इत्येव अन्वादेशः गकारान्तः नपुंसकलिङ्गः वेभिद् शब्दः वेभिद्यतेः क्विप् वेभिद्य इति यङन्तः धातुः सो तस्मात् क्विप् प्रत्ययः क्रियते क्विप् प्रत्यये कृते वेभिद्य इति यङन्तमस्ति तस्मात् क्विप् प्रत्ययः क्रियते क्विप् प्रत्यये कृते अतो लोपः इत्यनेन अकारस्य लोपः आर्धधातुक उपदेशकाले यद् अकारान्तम् तस्य अकारस्य लोपः स्यात् इत्यनेन अकारलोपे कृते वेभिद्य अस्ति यकारस्यापि लोपः क्रियते लोपो व्योर्वलि इत्यनेन वेभिद् अस्ति ततः वेरप्रक्तस्य इत्यनेन वकारस्य लोपे वेभिद् इति प्रातिपदिकं दकारान्तं प्रातिपदिकम् वेभित् वेभिद् सोः लुक् भवति वैकल्पिके सत्त्वे वेभित् वेभिद् वेभिदी अस्ति औङः शी शौ अल्लोपस्य स्थानिवत्वात् अझलन्तत्वात् न नुम् वेभिद् इ इत्यस्ति झलन्तमस्ति नपुंसकस्य झलर्थः इत्यनेन नुमागमः भवति वा इति प्रश्नः न भवति इति उच्यते किमर्थम् अल्लोपस्य स्थानिवत्वात् लुक् एट् द प्रक्रिया वेभिद्य इत्यत्र अतोलोपः इत्यनेन अकारः लुप्तः सः अकारः स्थानिवद्भावेन आनीयते कथं स्थानिवद्भावः अतः परस्मिन् पूर्वविधौ परनिमित्तः अजादेशः परनिमित्तः नाम अकार अर्धधातुकप्रत्ययनिमित्तः अजादेशः नाम अकारस्य लोपरूपः आदेशः स्थानिवत् स्यात् स्थानिभूतादजः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये अत्र किं कर्तुमिष्यते नुमागमः नुमागमः कुत्र भवति दकारात् पूर्वं भवितुम् अर्हति अतः स्थानिभूतादजः नाम अकारात् पूर्वत्वेन दृष्टस्य बेभद् इति इत्यस्य नुमागमे कर्तव्ये स्थानिवद्भावः भवति इत्युक्तत्वात् स्थानिवद्भावे किं भवति वेभिद् अ अकारः अस्ति चेत् झलन्तत्वं नास्ति अतः नुमागमः न भवति शौ अल्लोपस्य स्थानिवत्वात् अझलन्तत्वात् झलन्तत्वं नास्ति इत्यतः न नुम नुमागमः न भवति अस्तु अकारः स्थानिवद्भावेन आनीतः तर्हि अजन्तत्वादेव नुमागमः क्रियताम् अकार वैस्थानिवद्भाव इट् इस् नौ अजन्त अजन्तत्वात् नुमागमः भवति वा अजन्तलक्षणस्तु नु न अजन्तत्वात् नुमागमः अपि न भवति किमर्थम् स्वविधौ स्थानिवत्त्व अभावात् स्वविधौ अर्थात् स्थानिवद्भावेन यः वर्णः आनीयते तस्यैव यदि कार्यं कर्तुम् इष्यते तर्हि स्थानिवद्भावः न भवति पूर्वविधौ एव स्थानिवद्भावः पूर्वस्य अर्थात् झलन्तस्य नुमागमे कर्तव्ये एव स्थानिवद्भावः भवितुमर्हति स्वयं तम् एव अकारम् उपयुज्य स्थानिवद्भावः कर्तुम् इष्यते तर्हि न भवति स्वविधौ स्थानिवत्त्वाभावात् तदानीं तु स्थानिवद्भावः एव न भवति अतः अजन्तत्वं नास्ति झलन्तत्वात् स्थानिवद्भावः कर्तुं यदीष्यते तर्हि स्थानिवद्भावेन अझलन्तत्वात् नुमागमः न भवति सो ईदर् केसस् देर् इस् नो नुमागम वेभिदि इत्येव वेभिद् ई वेभिदि ब्राह्मणकुलानि ब्राह्मणकुलानि इति तु विशेष्यमेव नपुंसकलिङ्गम् इति दर्शयितुं नपुंसकलिङ्गे बहुवचने बेभिधि इत्येव रूपम्। चेच्छिदि एवमेव छिद् धातोः यङन्तः चेच्छिद्य इति भवति, तस्मात् कृत् प्रत्यये तत्रापि अकारलोपः यकारलोपः चेच्छिद् इति प्रातिपदिकं, तत्रापि नुमागमः न भवति, चेच्छिदि इति रूपम्। दट् इस् अबौट् दकारान्तास्। अग्रे चकारान्ताः नपुंसकलिङ्गाः सन्ति। I'll just do an introduction. So there is a riddle which is posed by somebody. It says, Jayante Nava Sau. Sau nama sukratyaye Nava Rupani. There are 9 forms. Tatha Amita Nava. In Am also there are 9 forms. Bhyam Bhis Bhyasam Sangame. In Bhyam Bhis and Bhyas. Shat Sankhyani. There are 6 forms each in Bhyam, Bhis and Bhis. Navaiva Supi. Supi nama ante. Saptami vahuvachane punaha nava rupani. Jasi trinyeva. So in Jas there are 3 forms. Tadvat chati. So similarly in Shas. In Jas and Shas there are 3 forms. In Su, Am and Sup there are 9 forms. In Bhyam, Bhis and Bhis there are 6 forms. Chatvari Anyavachasu. In all other vibhaktis, there are 4 forms each. Kasya Vibhudhaha Shabdasya Rupani Tad. Vibhudhaha, He Vibhudhaha, He Panditaha. Kasya Shabdasya Rupani. Which is this word? Which has such forms? Tad Janantu Pratibha Asti Chet. Pratibha Asti Chet Janantu. If you have that intelligence, find it out. Nigaditum Shanmasikaha Travadhihi. And the riddler gives a time of 6 months to find out such a word. So you now have a word which has these forms. 9 forms in Su, Am and Sup. 6 forms in Bhyam, Bhis and Bhis. 3 forms in Jas and Shas. And 4 forms each in other Vibhaktis. So, which is that word? We'll see in the next class.
एनाक्षरस्नाम्नायम् अधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः। मुनित्रयम् नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयम् विरच्यते।